अथ चतुर्थः पादः। आकडारादेका संज्ञा विप्रतिषेधे परं कार्यम् यूस्त्र्याख्यौ नदी नेयङ्वं स्थानावस्त्री वामी नितिह्रस्वश्च शेषोऽघ्यसखि पतिः समास एव षष्ठीयुक्तश्छन्दसि वा ह्रस्वं लघु संयोगे गुरु दीर्घञ्च यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम् सुप्तिङन्तं पदं नह्ये सिति च स्वादिष्वसर्वनामस्थाने यचिभम् तसौ मत्वर्थे अयस्मयादीनिच्छन्दसि बहुषु बहुवचनम् द्व्येकयोर्द्विवचनैकवचने कारके ध्रुवमपाये पादानम् भीत्रार्थानाम् भयहेतुः पराजेरसोढः वारणार्थानामीप्सितः अन्तर्धौ येनादर्शनमिच्छति आख्यातोपयोगे जनिकर्तुः प्रकृतिः भुवः प्रभवः कर्मणायमभिप्रैति ससम्प्रदानम् रुच्यर्थानाम् प्रीयमाणः श्लाघन्हुंस्थाशपाम् ज्ञीप्स्यमानः धारेरुत्तमर्णः स्पृहेरीप्सितः क्रुधद्रुहेर्ष्यासूयार्थानाम् यम् प्रतिकोपः क्रुधद्रुहोरुपसृष्टयोः कर्म राधीक्ष्योर्यस्य विप्रश्नः प्रत्याङ्भ्याम् श्रुवः पूर्वस्य कर्ता अनुप्रतिगृणश्च साधकतमम् करणम् दिवः कर्म च परिक्रयणे सम्प्रदानमन्यतरस्याम् आधारोऽधिकरणम् अधिशीङ्स्थासाम् कर्म अभिनिविशश्च उपान्वध्याङ्वसः कर्तुरीप्सिततमम् कर्म तथा युक्तम् चानीप्सितम् अकथितम् च गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्तासणौ हृक्रोरन्यतरस्याम् स्वतन्त्रः कर्ता तत्प्रयोजको हेतुश्च प्राग्रीश्वरान्निपाताः चादयो सत्त्वे प्रादयः उपसर्गाः क्रियायोगे गतिश्च ऊर्यादिच्विडाचश्च अनुकरणम् चानिति परम् आदरानादरयोः सदसति भूषणेलम् अन्तरपरिग्रहे कणे मनसि श्रद्धा प्रतीघाते पुरोव्ययम् अस्तञ्च अच्छगत्यर्थवदेषु अदोनुपदेशे तिरोऽन्तर्धौ विभाषाकृञि उपाजेन्वाजे साक्षात् प्रभृतीनि च अनत्याधान उरसि मनसि मध्ये पदे निवचने च नित्यम् हस्ते पाणावुपयमने प्राध्वम् बन्धने जीविकोपनिषदावौपम्ये ते प्राग्धातोः छन्दसि परेऽपि व्यवहिताश्च कर्मप्रवचनीयाः अनुर्लक्षणे तृतीयार्थे हीने उपोधिके च अपपरीवर्जने आं मर्यादा वचने लक्षणेत्थं भूताख्यान भागवीप्सासु प्रतिपर्यनवः अभिरभागे प्रतिः प्रतिनिधि प्रतिदानयोः अधिपरी अनर्थकौ सुः पूजायाम् अतिरतिक्रमणे च अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु अधिरीश्वरे विभाषाकृञि लः परस्मै पदम् तङानावात्मने पदम् तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः तान्येकवचनद्विवचनबहुवचनान्येकषः सुपः विभक्तिश्च युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च अस्मद्युत्तमः शेषे प्रथमः परस्सन्निकर्षः संहिता विरामोऽवसानम् इति चतुर्थः पादः इति प्रथमोऽध्यायः।